तस्माद्यज्ञात् सर्वहुतः अर्जस्वामानिजज्ञिरे छन्दागुंसि यज्ञिरे तस्माद् यजस्तस्मादजायत तस्मादश्वा अजायन्त ये तेजो भयाततः गावोह यज्ञिरे तस्माद् तस्माज्जाता अजावयः यत्पुरुषम् यदधुः तथा व्यकल्पयन् मुखम् किमस्य कौ बाहो कामोरूपादामुच्यते ब्राह्मणास्य मुखमासीत् बाहोराजन्यः कृतः ऊरोदस्य यद्वै स्यः पद्भ्यागुम् शोद्रो अजायत चन्द्रमामनसो जातः चक्षोः सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शीर्ष्णोद्यौ समवर्तत पद्भ्याम् भोमिर्दिश श्रोत्रात् तथा लोकानम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदनुजदासे भाता पुरस्ताद्यमुदा जहार शक्रः प्रविद्वान् प्रतिशस्य तस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सजन्ते यत्र पूर्वे साध्याः सन्ति देवाः अर्भ्यः सम्भोधः पृथिव्यैरसाच्या विश्वकर्मणः समवर्तताधि तस्य त्वष्टापि दधद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्ताद् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते जनाय प्रजापतिश्चरति गर्भे अन्तः अजायमाना बहुधा विजायते तस्य धीराः परिजान्ति योनिम् मरीचीनाम् पदमिच्छन्ति मेधसः यो देवेभ्य आगपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमाहृजाय ब्राह्मये ऋजम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्याद् तस्य देवा असंवसे श्रीश्चले लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ यात्तम् इष्टम् मनिषाण अमुम् मनिषाण सर्वम् मनिषाण तच्छञ्जोरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्ना अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ हिरण्यवर्णाम् हरिणीम् सुवर्णरजतस्रजाम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो ममावह ताम् महावह जातवेदो लक्ष्मीमनपगामिनीम् यस्याम् हिरण्यम् विन्देयङ्गामश्वम् पुरुषानहम् अश्वपूर्वाम् रथमध्याम् हस्तिनादप्रबोधिनीम् श्रियम् देवीमुपह्वये श्रीर्मा देवीर्जुषताम् कांसोऽस्मिताम् हिरण्यप्राकारमात्राञ्जुलम् वीम् वृत्ताम् तर्पयन्तीम् पद्मे स्थिताम् पद्मवह्नाम् तामिहो बह्वये श्रियम् चन्द्राम् प्रभासाम् यशसा ज्वलन्तीम् श्रियम् लोके देवजुष्टामुदाराम् ताम् पद्मिनीमीम् शरणमहम् प्रवद्ये लक्ष्मीर्मे दृश्यताम् त्वाम् वृणे आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽध बिल्वः तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः उपैतु माम् देव सखः कीर्तिश्च मणिना सह प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमुद्धिम् ददातु मे श्रुतिपादामलाम् ज्येष्ठामलक्ष्मीर्नाशयाम्यहम् अभूतिमसमृद्धिम् च सर्वाणि निर्नदमे गृहात् गन्धद्वाराम् दुराधर्षाम् नित्यपुष्टाम् करीषिणीम् ईश्वरीकम् सर्वभूतानाम् तामिहोपह्वये श्रियम् मनसः काममाकोतिम् वाचः सत्यमधीमहे पशूनाकुम् रूपमन्नस्य महि श्रीश्रयताम् यशः कर्दमेन प्रजा भूता मयि सम्भव कर्दमा श्रियम् वासय मे कुले मातरम् पद्ममालिनीम् आपसृजन्तस्निग्धानि चिक्लीतव समे गृहे निजदेवीम् मातरम् दुर्यम् वासय मे कुले आर्द्राम् पुष्करिणीम् पुष्प्यम् सुवर्णाम् हेममालिनीम् सूर्याम् हिरण्मयीम् लक्ष्मीम् जातवेदो ममावह आर्द्राम् यः करिणीम् जष्टिम् पिङ्गळाम् पद्ममालिनीम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो ममावह ताम् महावह जातवेदो लक्ष्मीमनपगामिनीम् यस्याम् हिरण्यम् प्रभूतम् गावो दास्योऽस्यान् विन्देयम् पुरुषानहम् यश्रियप्रयतो भूत्वा जुहुयालाद्यमन्नहम् श्रियः पञ्चदशर्जम् च श्रीकामस्त तदञ्जपे आनन्दः कर्दमश्चैव चिक्लीत इति विश्रुताः ऋषयस्ते त्रयः पुत्रा स्वयम् श्रीदेव देवता पद्मानने पद्मभूरो पद्माक्षी पद्मशम्भवे त्वम् माम् भयस्य पद्माक्षी येन सौख्यम् लभाम्यहम् अश्वदायि च गोदायि हरदायि महाधने धनम् मे जुषताम् देवीम् सर्वकामार्थसिद्धये पुत्रपौत्रधनम् धान्यम् हस्तश्वाजाविगोरथम् प्रजानाम् भवसि माता आयुष्मन्तम् करोतु माम् चन्द्राभाल्लक्ष्मीमीशानाम् सूर्याभाम् श्रियमेश्वरीम् चन्द्रसूर्याग्निसर्वाभाम् श्रीमहालक्ष्मीमुपास्महे धनमग्निर्धनम् वायुर्धनम् सूर्यो धनम् वसुः धनमिन्द्रो बृहस्पतिर्वरुणम् धनमश्नुते वैरदेह सोमम् पिब सोमम् पिबतु वृत्रः सोमम् धनस्य सोमिनो मह्यम् ददातु सोमिनी न क्रोधो न जमात्सर्यम् न लोभो नाशुभामतिः भवन्ति कृतपुण्यानाम् भक्तानाम् श्रीसोक्तम् जपेत् सदा वर्षम् सुदेवि भावरिदिवो अभ्रस्य विद्युतः रोहम् तु सर्वबीजान्यपब्रह्मद्विषोदिः पद्मप्रिये पद्मनि पद्महस्ते पद्मालये पद्मदलाय दाक्षे विश्वप्रिये विश्वमनोनक्रोधे त्वत्पादपद्मम् महिषम् निधत्स्व गासा पद्मासनस्था विमलकटितटे पद्मपत्राय दाक्षे कुम्भीरावत्तनाभिस्तनभरणमिता शुभ्रवस्त्रोत्तरीया लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैस्माभिलाहेमकुम्भैः नित्यं सा पद्महस्ता मम वसत् गृहे सर्वमाङ्गल्ययुक्ता लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधारेश्वरीम् दासीभूतसमस्तदेववलिताम् लोकैकदीपाङ्कुराम् श्रीमन्मन्दकटाक्षलब्धविभवब्रह्मेन्द्रगङ्गाधराम् त्वाम् त्रैलोक्यकुटुम्बिनीम् सरसिजाम् वन्दे मुकुन्दप्रियाम् शुद्धलक्ष्मेर्मोक्षलक्ष्मेर्जयलक्ष्मीः सरस्वते श्रीलक्ष्मेर्वरलक्ष्मेश्च प्रसन्ना मम सर्वदा पदाङ्कुशोपाशमभीतिमुद्राङ्करैर्वहन्तीम् कमलासनस्ताम् बालार्ककोटिप्रतिभान् त्रिनेत्राम् भजेऽहमम्बाम् जगदीश्वरीन्द्राम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि तन्नो लक्ष्मीः प्रचोदयात् ॐ धाता पुरस्ताद्यमुदा जहार शक्रः प्रविद्वान् प्रतिशस्य तस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते सहस्रशीर्षम् देवम् विश्वाक्षम् विश्वशम्भुवम् विश्वन्नारायणम् देवमक्षरम् परमम् पदम् विश्वतः परमान्नित्यम् विश्वन्नारायणकुम्भरिम् विश्वमेवेदम् पुरुषस्तद्विश्वमुपजीवति पतिम् विश्वस्यात्मेश्वरगुम् शाश्वतगुम् शिवमच्युतम् नारायणम् महाज्ञेयम् विश्वात्मानम् परायणम् नारायणपरो ज्योतिरात्मा नारायणः परः नारायणपरम् ब्रह्मतत्त्वम् नारायणः परः नारायणपरो ध्याता ध्यानम् नारायणः परः यच्च किञ्चिज्जगत्सर्वम् दृश्यते श्रूयतेऽपि वा अन्तर्बहिश्च तत्सर्वम् व्याप्य नारायणस्थितः अनन्तमव्ययम् कविगुम् समुद्रेऽन्तम् विश्वशम्भवम् पद्मकोशप्रतीकाशगुम् हृदयम् चाप्यधोमुखम् अधो निष्ठ्यापि तस्यान्तेनाभ्यामुपरितिष्ठति ज्वालमालाकुलम् भाति विश्वस्यायतनम् महत् सन्ततगम् शिलाभिस्तुलम् वत्याकोशसन्निभम् तस्यान्ते सुशिरगम् सूक्ष्मम् तस्मिन् सर्वम् प्रतिष्ठितम् तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतो मुखः सोऽग्रभग्विभजम् तिष्ठन्नाहारमजरः कविः तिर्ययोर्ध्वमधशायीरश्मयस्वस्य सन्तता सन्तापयति स्वम् देहमापादतलमस्थगः तस्य मध्ये वह्निशिखा अणीयोऽर्भाव्यवस्थितः नीलतो यतमध्यस्ताद्विज्युल्लेखे बभास्वरा नीवारसोगवत्तन्वीपीताभास्वच्छणोपमा तस्याशिखाया मध्ये परमात्मा व्यवस्थितः सब्रह्मसदिवः सहरिष्येन्द्रस्वाक्षरः परमस्वरा योपाम्बुष्पम् वेद पुष्पवान् प्रजावान् पशुवान् भवति चन्द्रमा वा अपाम्बुष्पम् पुष्पवान् प्रजावान् पशुवान् भवति य एवम् वेद योपामायतनम् वेद ఆయతనవాన్ భవతి అగ్నిర్వా అపామాయతనం ఆయతనవాన్ భవతి యోగ్నేరాయతనం వేద ఆయతనవాన్ భవతి ఆపో వా అగ్నేరాయతనం ఆయతనవాన్ భవతి ఏవం వేద యోపామాయతనం వేద ఆయతనవాన్ భవతి వాయుర్వా అపామాయతనం ఆయతనవాన్ భవతి యో వాయోరాయతనం వేద ఆయతనవాన్ భవతి ఆపో వై వాయోరాయతనం ఆయతనవాన్ భవతి య ఏవం వేద యోపామాయతనం వేద ఆయతనవాన్ భవతి అసౌ వై తపన్నపామాయతనం ఆయతనవాన్ భవతి యోమశ్యతపద ఆయతనం వేద ఆయతనవాన్ భవతి ఆపో వా అమశ్యతపద ఆయతనం ఆయతనవాన్ భవతి య ఏవం వేద యోపామాయతనం వేద ఆయతనవాన్ భవతి చంద్రమా వా అపామాయతనం ఆయతనవాన్ భవతి యశ్చంద్రమస ఆయతనం వేద ఆయతనవాన్ భవతి ఆపో వై చంద్రమస ఆయతనం ఆయతనవాన్ భవతి య ఏవం వేద యోపామాయతనం వేద ఆయతనవాన్ భవతి నక్షత్రాణి వా అపామాయతనం ఆయతనవాన్ భవతి యో నక్షత్రాణామాయతనం వేద ఆయతనవాన్ భవతి ఆపో వై నక్షత్రాణామాయతనం ఆయతనవాన్ భవతి య ఏవం వేద యోపామాయతనం వేద ఆయతనవాన్ భవతి పర్జన్యో వా అపామాయతనం ఆయతనవాన్ భవతి యపర్జన్యస్యాయతనం వేద ఆయతనవాన్ భవతి ఆపో వై పర్జన్యస్యాయతనం ఆయతనవాన్ భవతి య ఏవం వేద యోమామాయతనం వేద ఆయతనవాన్ భవతి సంవత్సరో వా అపామాయతనం ఆయతనవాన్ భవతి యస్సంవత్సరస్యాయతనం వేద ఆయతనవాన్ భవతి ఆపో వై సంవత్సరస్యాయతనం ఆయతనవాన్ భవతి య ఏవం వేద యోప్సునాభం ప్రతిష్ఠితాం వేద ప్రత్యేవ తిష్ఠతి ఇంతద్విష్ణోర్బలమాహో కాదీర్తిం పరాయణం ఏకో యద్ధారయద్దేవ వేదతీరోదసీ ఉభే వాతాద్విష్ణోర్బలమాహో అక్షరాద్దీప్తిరుచ్యతే త్రిపదాద్ధారయద్దేవ యద్విష్ణోరేకముత్తమం రాజాధిరాజాయ ప్రసంహసాహినే నమో వయం వై శ్రవణాయ కృమ్మహే సమే కామాన్ కామకామాయ మహ్యం కామేశ్వరో వై శ్రవణో దదారో కుబేరాయ వై శ్రవణాయ మహారాజాయ నమః ఓం తద్బ్రహ్మా ఓం తద్వాయో ఓం తదాత్మా ఓం తత్సత్యం ఓం తత్సర్వం ఓం తత్పురోర్నమః అన్నశ్చరదిభూతేషు గుహాయాం విశ్వమూర్తిషు त्वम् यज्ञस्त्वम् वषट्कारस्त्वमिन्द्रस्त्वगम् रुद्रस्त्वम् विष्णुस्त्वम् ब्रह्म त्वम् प्रजापतिः त्वम् तदाप आपो ज्योतिरसोऽवृतम् ब्रह्म भूर्भुवः सुवरोम् अथैतम् विष्णवे जलम् निर्वपदे यज्ञो वै विष्णुः यज्ञ एवान्ततः प्रतिष्ठति सोऽत्र योगे विष्णवे स्वाहा यज्ञाय स्वाहा प्रतिष्ठायै स्वाहेति नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदा शिवो लक्ष्मीम् क्षीरसमुद्रराजतनयाम् श्रीरङ्गधामेश्वरीम् दासीभूतसमस्तदेववनिताम् लोकैकदीपाङ्कुराम् श्रीमन्मन्दकटाक्षलब्धविभवद्ब्रह्मेन्द्रगङ्गाधराम् त्वाम् त्रैलोक्यकुटुम्बिनीम् सरसिजाम् वन्दे मुकुन्दप्रियाम् शुद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीः सरस्वती श्रीलक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा वराङ्कुशोपाशमभीतिमुद्राङ्करैर्वहन्तीम् कमलासनस्ताम् बालार्ककोटिप्रतिभाम् त्रिनेताम् भजेऽहमम्बाम् जगदीश्वरीणाम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि तन्नो लक्ष्मीः प्रचोदयात् ॐ निधनपतये नमः निधनपदान्तिकाय नमः ऊर्ध्वाय नमः ऊर्ध्वलिङ्गाय नमः हिरण्याय नमः हिरण्यलिङ्गाय नमः सुवर्णाय नमः सुवर्णलिङ्गाय नमः दिव्याय नमः दिव्यलिङ्गाय नमः भवाय नमः भवलिङ्गाय नमः शर्वाय नमः शर्वलिङ्गाय नमः शिवाय नमः शिवलिङ्गाय नमः ज्वलाय नमः ज्वललिङ्गाय नमः आत्माय नमः आत्मलिङ्गाय नमः परमाय नमः परमलिङ्गाय नमः एतत्सोमस्य सूर्यस्य सर्वलिङ्गगोस्थापयति पाणिमन्त्रम् पवित्रम् सद्यो जातम् प्रपद्यामि सद्यो जाताय वै नमो नमः भवे भवेनाति भवे भवः स्वमाम् भवोद्भवाय नमः वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो ममोन्मनाय नमः अघोरेभ्यो सघोरेभ्यो घोरघोरधरेभ्यः सर्वेभ्यः सर्वशिर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवो। पुरुषस्य विद्मसहस्राक्षस्य महादेवस्य धीमहि तन्नो रुद्रः प्रचोदयात्। तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात्। तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्त्यः प्रचोदयात्। तत्पुरुषाय विद्महे चक्रतुण्डाय धीमहि तन्नो नन्दिः प्रचोदयात्। तत्पुरुषाय विद्महे महासेनाय धीमहि तन्नः षण्मुखः प्रचोदयात्। तत्पुरुषाय विद्महे सुवर्णपक्षाय धीमहि तन्नो गरुडः प्रचोदयात्। वेदात्मनाय विद्महे हिरण्यगर्भाय धीमहि तन्नो ब्रह्म प्रचोदयात्। नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात्। वज्रनखाय विद्महे तीक्ष्णदग्धृष्ट्राय धीमहि तन्नो नारदसिंहः प्रचोदयात्। भास्कराय विद्महे महज्योतिकराय धीमहि तन्नो आदित्यः प्रचोदयात्। वैश्वानराय विद्महे लालीलाय धीमहि तन्नो अग्निः प्रचोदयात्। कात्यायनाय विद्महे कन्याकुमारि धीमहि तन्नो दुर्गः प्रचोदयात्। ॐ स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीम् महिषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम्। लोकाः समस्ताः सुखिनो भवन्तु। काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी। देशोऽयम् क्षोभरहितः। ब्राह्मणाः सन्तु निर्भयाः। अपुत्राः पुत्रिणः सन्तु पौत्रिणः। अधनाः सधनाः सन्तु जीवन्तु जनताम् शतम्। ॐ शान्ति शान्ति शान्तिः। सर्वे जनाः सुखिनो भवन्तु।